The Gayatri Mantra is the most powerful, potent, significant, and celebrated of all hymns. Thus the rishis, the sanctified sages, have stated that Gayatri is a Maha Mantra. One who performs Gayatri in the Vedic tradition washes away all his sins and evil curses immediately. One who chants or listens to Gayatri with devotion is bestowed with wealth, prosperity, and progeny, and attains all his worldly desires for name, fame, and eternal bliss. Come, let us perform the Gayatri Mantra according to the Vedic tradition. The recitation of Gayatri is preceded by the Pavitri Karanam.
Om Atha Pavitri Karanam. पवित्रेस्थो वैष्णव्यौ सवितुर्वप्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः तस्य ते पवित्रपते पवित्रपूतस्य यत्कामग्वम् पुनेतच्छकेयम् पुनातु पुण्डरीकाक्षः पुनातु पुण्डरीकाक्षः पुण्डरीकाक्षः पुनातु.
This is followed by Achmaniyam.
Achmaniyam. ॐ अमृतोपस्तरणमसि स्वाहा ॐ केशवाय नमः ॐ अमृतपिधानमसि स्वाहा ॐ माधवाय नमः ॐ सत्यं यशः श्रीमयि श्रीश्रयतां स्वाहा ॐ नारायणाय नमः.
प्राणायाम follows next.
प्राणायाम ॐ भूः रसोमृतं ब्रह्म भूर्भुवः स्वरो.
आवाहनम् द इन्वोकेशन् ऑफ गायत्री.
आवाहनम् ॐ विश्वामित्र ऋषिणा विश्वमित्र स्वरूपिणी प्रणौमि व्याहरं देवी गायत्रीं शिरसा सदा गायत्री वेद जननी गायत्री पापनाशिनी गायत्र्यास्तु परन्नास्ति दिवि चेह छपावनि गायत्रीं आहवयामि
ध्यानम् इन मेडिटेशन ऑफ गायत्री
ओम नमस्ते देवी गायत्री सावित्री त्रिपदेक्षरे अजरे अमरे माता त्राहि माम शरणागतम्
Oh. Oh. Oh.
देवस्य धीमहि धियो यो नः प्रचोदयात्। Yo, yo, na, recho. Oh. देवस्य धीमहि धियो यो न प्रचोदयात्। Let it go. Hare Hare Krishna. देवस्य धीमहि धियो यो नः प्रचोदयात्। Rachel.